तथा तासां वदन्तीनां परुषं दारुणं बहु राक्षसीनाम सौम्यानाम रुरोदजनकात्मजा एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी उवाच परमत्रस्थ बाष्पगद्गदया गिरा न मानुषी राक्षसस्य भार्या भवितुमर्हति कामं खादतमां सर्वाः न करिष्यामि वाचः सा राक्षसी मध्यगता सीता सुरसुतोपम न शर्म लेभे दुःखार्थ रावणेन च तर्जिता देवते स्वाधिकं सीता विशन्तीवाङ्गमात्मनः वने यूथपरिभ्रष्ट मृगी कोकैरिवार्जिता सात्वशोकस्य विपुलां शाखामालम्ब्य पुष्पितां चिन्तयामास शोकेन भर्तारं भग्रमानसा सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलश्रवैः चिन्तयन्ती न शोकस्य तदान्तमधिगच्छति सा वेपमाना पतिता प्रवाते कदली यथा राक्षसीनां भयत्रस्ता विषण्णवदना भवति तस्या सा दीर्घविपुला पेपन्त्या सीतया तदा ददृशे कम्पिनी वेणी व्यालीव परिसर्पते सा निःश्वसन्ति दुःखार्ता शोकोपहतचेतना आर्ता व्यसिजदश्रूणि मैथिली विललापः हा रामेति च दुःखार्ता हा पुनर्लक्ष्मणेति च हा शुश्रुमम कौसल्ये हा सुमित्रेति भामिनी लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा यत्राहमेवं क्रूराभिः राक्षसेभिर्हार्दिता जीवामि हीना रामेण मुहूर्तमपि दुःखिता एषाल्पपुण्या कृपणा विनशिष्याम्यनाथवते समुद्रमध्येनौ पूर्णा वायुवेगैरिवाहता भर्तारं तमपश्यन्ति राक्षसी वशमागता सीदामि खलु शोकेन कूलं तोयहतं यथा तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनं धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनं सर्वथा तेन हीनायाः रामेण विदितात्मना तीक्ष्णं विषमिवास्वाद्य दुर्लभं मम जीवितं कीदृशं तु मया पापं पुरा जन्मान्तरे कृतं येनेदं प्राप्यते दुःखं मया घोरं सुदारुणं जीवितं त्यक्तुमिच्छामि शोकेन महता वृता राक्षसीभिश्च रक्षन्त्य रामो नासाध्यते मया धिगस्तु खलु मानुष्यं धिगस्तु परवश्यतां न शक्यं यत्परित्यक्तुम् आत्मच्छन्देन जीवितम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये चतुर्विंशसहस्रिकायां संहितायां सुन्दरकाण्डे पञ्चविंशः सर्गः।